एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः चीनदेशस्य निवेशकर्तृन् नेपाले निवेशनाय अनुरुणद्धि। चीनदेशस्य औपचारिक भ्रमणे विद्यमानः प्रधानमन्त्री दाहालः गतदिने बेजिङस्थाने आयोजितम् नेपाल चीन व्यापार सम्मेलनम् सम्बोधयन् नेपाले निवेशनस्य वातावरण निर्माणस्य हेतोः ततो लाभम् ग्रहीतुम् चीनदेशीय निवेशकर्तृन् अनुरुणत्। चीनस्थितस्य नेपाली राजदूतावासस्य समन्वयेन नेपालोद्योग वाणिज्य महासंघेन सीसीपीआईटी नाम्न्या चीनदेशीयोद्योग व्यवसायीनाम् संस्थया च आयोजिते तस्मिन् सम्मेलने प्रधानमन्त्री दाहालः नेपाले पर्यटन पूर्वाधारोर्जा कृष्यौषध जन्योत्पादन प्रवृत्ति क्षेत्रेषु निवेशनस्य अधिक सम्भावनाया कारणेन निवेशनम् विदाय लाभम् ग्रहीतुम् च अनुरुणत। असौ नेपाले करोपि तुलनात्मक रूपेण न्यूनोऽस्तीति वितर्क्य निवेशनस्य उचित वातावरणम् निर्मितम् इति समस्पष्टयत। नेपाले निवेशनस्य सुरक्षायै आवश्यकस्य उचितस्य च वातावरणस्य निर्माणाय च सर्वकारः प्रतिबद्धोऽस्तीति असौ अभाषत। प्रधानमन्त्री दाहाल नेपालस्य चीनदेशेन सह व्यापारहानि विपुलमात्रायामस्तीति चर्चयन् एतस्याः न्यूनीकरणाय उत्पादनक्षमतायां वृद्धेः भौतिक पूर्वाधारेषु सुधारस्य च आवश्यकताम् प्रादर्शयत। प्रधानमन्त्री दाहाल देशद्वयस्य मध्ये पारेसीमम् अन्तराबद्धतायाः प्रवर्धनाय महत्वपूर्ण अग्रेसरता अवलम्बिता आर्थिक सम्बन्धे बलम् च दत्तमिति अकथयत। सम्मेलने चीनदेशस्य वाणिज्योपमन्त्री ली फाई नेपाल चीनदेशौ शताब्दीभिः घनिष्ठ मित्रेस्त इति चर्चयन् चीनदेशः नेपालस्य सदैव समृद्धिम् द्रष्टुम् अभिलषतीति अवोचत। तदवसरे नेपालोद्योग वाणिज्य महासंघस्य अध्यक्ष चन्द्रप्रसाद ढकालः चीनदेशीय निवेशकर्तृणाम् कृते नेपालः निवेशनस्य विश्वसनीय गन्तव्यमस्तीति चर्चयन् अब्रवीत् इतोप्यधिकम् चीनदेशीय निवेशनम् अपेक्षितम् वर्तते। मित्रराष्ट्रस्य चीनदेशस्य औपचारिक भ्रमणे विद्यमानः प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः गतसायं बेजिङ वर्तिनी नेपाली राजदूतावासे आयोजिते स्वागत समारोहे रात्रिभोजे च सहभागी अभवत्। प्रधानमन्त्रिणः दाहालस्य एतस्य भ्रमणदले सहभागिनः नेपाली प्रतिनिधिमण्डलस्य च स्वागताय चीनदेशस्य कृते नेपाली राजदूतेन विष्णुप्रकार श्रेष्ठेन आयोजिते तस्मिन् समारोहे प्रधानमन्त्री दाहालः सहभागी अभवत्। तदवसरे परराष्ट्र मन्त्री नारायण प्रसाद साउद पेयजल मन्त्री महेन्द्र यादव भौतिक पूर्वाधार यातायात मन्त्री प्रकाश ज्वाला सचिवा नेपालस्य कृते चीनदेशीय राजदूत सेनचङ चीनस्थितस्य नेपाली समुदायस्य व्यक्तय चीनदेशीय समुदायस्य नागरिकाश्च सहभागिन आसन्। परराष्ट्र मन्त्री एनपी साउद कथयति चीनदेशस्य विकासेन समृद्ध्या च नेपालेन लाभो ग्रहणीय। बेजिङ स्थिते नेपाली राजदूतावासे ह्य आयोजिते कार्यक्रमे नेपाली समुदायम् सम्बोधयन् असौ चीनदेशेन नेपालस्य आर्थिक विकासाय विहितस्य निरन्तरम् सहयोगस्य कृते आत्मनाम् कृतज्ञतास्तीति अवोचत। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य जनवादी गणतन्त्र चीनदेशस्य राष्ट्रपते शी चिनफिङ इत्यस्य च मध्ये परह्यः सम्पन्नायाम् द्विपक्षीय मेलवार्तायाम् नेपाल चीन सम्बन्धस्य विविध विषयेषु सारगर्भित आलापो भवदिति अज्ञापयत। असौ नेपालः एक चीन नीतिम् प्रति प्रतिबद्धोऽस्तीति चर्चयन् नेपालस्य भूमेः चीनदेशस्य हितस्य विरुद्धे प्रयोगम् रोद्धुम् आत्मनाम् दृढता स्थिति अकथयत। परराष्ट्रमन्त्री साउद नेपालस्य सार्वभौमिकताम् अखण्डताम् राष्ट्रिय स्वतन्त्रताम् च प्रति चीनदेशस्य निरन्तरम् समर्थनम् दृढनीतिम् च प्राशंसत। प्रमुख राजनैतिक दलानाम् नेतृभिः स्वर्ण तस्करी प्रकरणस्य अनुसन्धानाय संघटनीयस्य उच्चस्तरीय अनुसन्धानायोगस्य क्षेत्राधिकारस्य सम्बन्धे विमृष्टम् वर्तते। गृहमन्त्रालये ह्य बीते विमर्शने सत्तारूढानाम् दलानाम् पक्षतः प्रस्तुते प्रस्तावे प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य असम्मतेः पश्चात् अतिरिक्त विमर्शनाय समयः प्रदत्तोऽस्तीति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। सत्तारूढ दलानाम् पक्षतः केन्द्रीय अनुसन्धान निकायेन वित्तस्य अनुसन्धानस्य पुनरावर्तनत्वेन आयोगस्य क्षेत्राधिकार निर्धारणस्य प्रस्तावः प्रस्तुतः परं नेकपा एमाले दलस्य पक्षतः विमर्शने सहभागिभिः नेतृभिः दलनेतृत्वेन सह विमर्शनाय अतिरिक्त समयः वियाचित इति कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन उपवेशी अनुसन्धानाय स्वर्ण प्रकरणेन सम्बद्धेषु सम्पूर्ण विषयेषु अनुसन्धानत्वेन क्षेत्राधिकारः निर्धारणीयः इति अभियाच्यमानं वर्तते। उपप्रधान गृहमन्त्री नारायणकाली श्रेष्ठ सर्लाई प्रवृत्तिषु मध्यप्रदेशस्य जनपदेषु जायमानानां साम्प्रदायिक घटनानां विषये नवीनरीत्या निर्णयनाय सर्वकारेण पूर्वकार्यं विद्यमानम् अस्तीति ज्ञापयति। प्रतिनिधि सभायाः राज्य व्यवस्था सुशासन समिते ह्यस्तनोपवेशे गृहमन्त्री श्रेष्ठ सर्लाई पर्सा प्रवृत्तिषु जनपदेषु पश्चात्तन दिनेषु जायमानानां साम्प्रदायिक घटनानां विषये सर्वकारः गभीरोऽस्ति, तत्र घटिताः घटनाः चिन्ता जनिकाः सन्तीति च अवोचत। गृहमन्त्री श्रेष्ठः यथासम्भवं प्राशासनिक निर्णयस्य अवस्था नोद्भवतु इति धिया सर्वकारस्य क्रियाशीलतायां सत्यामपि अवस्थायाः प्रतिकूलतायां प्राप्तेः पश्चात् पश्चात्तन समये प्राशासनिक निर्णयस्य विषये विमृश्यमानमस्तीति असूचयत्। गृहमन्त्री श्रेष्ठः नेपालः बहुजातीय बहुसांस्कृतिक बहुधार्मिकश्च देशोऽस्ति, परं तत्र प्रभावसर्जकं कार्यं प्रति सर्वकारः गभीरो स्थिति च प्रावोचत। नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा कथयति मुस्लिम समुदायस्य कृते नेपाली कांग्रेस दले समानुपातिक समावेशिनः आरक्षणस्य व्यवस्था सुनिश्चितमस्ति। नेपाली कांग्रेस दलस्य भातृ संस्थायाः नेपाल मुस्लिम संघस्य तृतीय महाधिवेशनस्य उद्घाटन समारोहे ह्य सभापति देउवा मुस्लिम समुदायाय राज्यस्य निकायस्वपि संविधानस्य अनुसारेण समानुपातिक समावेशिनः आरक्षणस्य व्यवस्था विहितेति अस्मरत्। सभापतिः देउवा मुस्लिम समुदाये विद्यमानाम् एकतां सौहार्दं च प्रशंसन् अस्मात् अन्य समुदाये अपि प्रेरणा ग्रहीतुं शक्यते इति उदैरयत। कार्यक्रमे कांग्रेस दलस्य महामन्त्री गगन कुमार थापा स्वस्य दलं सर्वासां जातिनां धर्म समुदायानां च प्रतिनिधित्वकारी राष्ट्रिय चरित्रस्य दलम् अस्तीति अगदत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा भासते नागरिकाणां जीवनस्तरे सुधारस्य आनयनं सर्वकारस्य प्रमुख विषयो वर्तते। नेपाल पत्रकार महासंघस्य नेपाल टेलिभिजन प्रतिष्ठान शाखया स्थापितस्य हेम सुनिल संकटपूर्ण टेलिभिजन पत्रकारिता पुरस्कारस्य वितरण समारोहं ह्य सिंहप्रासादे सम्बोधयन्ती मन्त्री शर्मा नागरिकाणाम् अवस्थायाः अपरिवर्तनस्य कारणेन नैराश्यं वर्धितम् इत्यतः जनतया परिवर्तनस्य अनुभवनत्वेन कार्यं विधातुं समेषाम् अनुकूल प्रयासः आवश्यकोऽस्तीति प्रत्यपादयत्। प्रतिनिधि सभाया राज्य व्यवस्था सुशासन समितौ अष्टचत्वारिंशदुत्तर द्विसहस्रतम वैक्रमाब्दम् अधिकार दुरूपयोग अनुसन्धान आयोगादिनियमं संशोधयितुं निर्मितं विधेयकम् आधृत्य विमर्शनं प्रारब्धं वर्तते। समितेः गतदिने उपविष्टे उपवेशे प्रस्तुत विधेयक विषयकस्य विमर्शनस्य अग्रेसारणस्य क्रमे विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ सुशासनस्य प्रत्याभूतिं दापयितुं विधेयकम् आनेतव्यम् अभूत् इति अगदत्। सूचना प्रविधि मन्त्री रेखा शर्मा विधेयकं समित्या विस्तरेण अधीत्य गभीरतापूर्वकं विमृश्य च अग्रे वर्धापयिष्यते इति विश्वासम् अभिव्यनक। विधेयकस्य प्रकरणगत विमर्शनस्य पूर्वं समित्या अधिकार दुरूपयोगानुसन्धान आयोगस्य प्रमुखायुक्तेन आयुक्तैश्च सह विमृष्टुं निर्णीतं वर्तते। प्रतिनिधि सभाया शिक्षा स्वास्थ्य सूचना प्रविधि समित्या एमबीबीएस चिकित्सा स्नातक स्तरीय कक्षायाम् अध्ययनरतानाम् अनशनरतानां च विद्यार्थिनां वेदनायाः सम्बन्धे निर्देशन प्रदानात् पूर्वं विद्यार्थिनां सम्पूर्ण विवरणानां सूचनायाश्च संकलनं विधाय पुनः विमर्शनार्थम् उपवेष्टुं निर्णीतम् अस्ति इति समाचाराः।